शदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं भैरोचनीं कर्मफलेषु जुष्टाः दुर्गां देवीगुं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वाः पूश्च पृथ्वी बहुला न उर्वी भवातोकायतनयाय शम्योः विश्वानि नो दुर्गः जातवेदः सिन्धुन्न नावा दुरिदातिपर्षि अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्य पिता तनूनाः कृतनाजितगुं सहमानमुग्रमग्निगुं भुवेम परमात्सदस्तात् सनः पश्यदति दुर्गाणि विश्वाशामद्देवो अतिदुरिदात्यग्निः रत्नोषिकमीड्यो अध्वरेषु सना च होतानव्यश्च सत्सि स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनु सञ्चरेम नाकस्य पृष्ठमभि संवसानो वैष्णवी लोकहिममानयन्ता ॐ कात्यायनाय विद्महे कन्यकुमारी